अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ति कस्याश्चिदासीद्रसना तदानीम् अङ्गुष्ठमूलार्पितसूत्रशेषा
अर्धाचितेति सत्वरम् सवेगम् उत्थितायाः कस्याश्चित् अर्धम् आचिता मणिभिः गुम्फिता अर्धाचिता दुर्निमिते सम्भ्रमात् दुःखेन निक्षिप्ते डुमै प्रक्षेपणे इति धातोः कर्मणि तः पदे पदे प्रतिपदम् वीप्सायाम् द्विर्भावः गलन्ती गलद्रत्ना सती रशना मेखला तदानीम् तस्मिन्नवसरे अङ्गुष्ठमूले अर्पितम् लगितम् सूत्रमेव शेषः यस्यास्सा आसीत्
तासाम् मुखैरासवगन्धगर्भैः व्याप्तान्तराः सान्द्रकुतूहलानाम् विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन्
तासामिति तदानीम् सान्द्रकुतूहलानाम् तासाम् स्त्रीणाम् आसवगन्धः गर्भे एषाम् तैः विलोलानि नेत्राण्येव भ्रमराः येषु तैः मुखैः व्याप्तान्तराः छन्नावकाशाः गवाक्षाः सहस्रपत्राभरणा इव आसन् कमलालङ्कृता इव स्थिताः इत्यर्थः
तावत् पताकाकुलमिन्दुमौलिः उत्तोरणम् राजपथम् प्रपेदे प्रासादशृङ्गाणि दिवापि कुर्वन् ज्योत्स्नाभिषेकद्विगुणद्युतीनि
तावदिति तावत् तस्मिन्नवसरे इन्दुमौलिः ईश्वरः दिवा अपि प्रासादशृङ्गाणि ज्योत्स्नायाः अभिषेकेण स्नपनेन द्विगुणद्युतीनि द्विरावृत्तकान्तीनि गुणस्त्वावृत्तिशब्दाजिज्येन्द्रियामुख्यतन्तुषु इति वैजयन्ति कुर्वन् पताकाभिः आकुलम् व्याकीर्णम् उत्तोरणम् उच्छ्रिततोरणम् राजपथम् प्रपेदे
तमेकदृश्यम् नयनैः पिबन्त्यः नार्यो न जग्मुर्विषयान्तराणि तथा हि शेषेन्द्रियवृत्तिरासाम् सर्वात्मना चक्षुरिव प्रविष्टा
तमिति एकः एव दृश्यः दर्शनीयः तम् एकदृश्यम् तम् ईश्वरम् नयनैः पिबन्त्यः अतितृष्णया पश्यन्त्य इत्यर्थः ताश्शङ्करम् दृष्टिभिरापिबन्त्यः इति वा पाठः नार्यः विषयान्तराणि ततः अन्यान् विषयान् शब्दादीनित्यर्थः न जग्मुः न विदुः इत्यर्थः तथा हि आसाम् नारीणाम् शेषेन्द्रियवृत्तिः श्रोत्रादिप्रवृत्तिः सर्वात्मना स्वरूपकार्ष्ण्येन चक्षुः प्रविष्टेव श्रोत्रादीनि इन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेः चक्षुरेव प्रविश्य कौतुकात् स्वयमपि एनम् उपलभन्ते किमु अन्यथा स्वस्वविषयाधिगमः किन्नस्यादिति भावः
स्थाने तपो दुश्चरमेतदर्थम् अपर्णया पेलवयापि तप्तम् यादास्यमप्यस्य लभेत नारी सा स्यात् कृतार्था किमुताङ्कशय्याम्
स्थान इति पेलवया कोमलया अपि अपर्णया पार्वत्या एतस्मै शिवाय एतदर्थम् अर्थेन सह नित्यसमासः सर्वलिङ्गता च इति विशेष्यनिघ्नत्वम् दुश्चरं तपः तत्तं स्थाने युक्तम् कुतः या नारी अस्य ईश्वरस्य दास्यं दासीत्वम् अपि लभेत सा कृतार्था स्यात् या अङ्क एव शय्या ताम् अङ्कशय्यां लभेत सा किमुत कृतार्थेति किमु वक्तव्यमित्यर्थः
परस्परेण स्पृहणीयशोभम् न चेदिदम् द्वन्द्वमयोजयिष्यत् अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानाम् विफलो भविष्यत्
परस्परेणेति स्पृहणीयशोभम् सर्वैः आशास्यमानसौन्दर्यम् इदम् द्वन्द्वम् मिथुनम् द्वन्द्वम् रहस्य इति निपातः परस्परेण नायोजयिष्यच्चेत् न योजयेद्यदि प्रजानाम् पत्युः विधातुः अस्मिन् द्वये द्वन्द्वे रूपविधाने सौन्दर्यनिर्माणे यत्नः प्रयासः विफलः अभविष्यत् भवेत् एतदनुरूपस्त्रीपुंसान्तराभावादिति भावः लिङ्निमित्ते लृङ्क्रियातिपत्तौ इति लृङ्
ननूनमारूढरुषा शरीरम् अनेन दग्धम् कुसुमायुधस्य व्रीडादमुम् देवमुदीक्ष्य मन्ये सन्न्यस्तदेह स्वयमेव कामः
नेति आरूढरुषा प्ररूढकोपेन अनेन हरेण कुसुमायुधस्य कामस्य शरीरम् न दग्धम् नूनम् किन्तु कामः अमुम् देवम् उदीक्ष्य दृष्ट्वा व्रीडात् सौन्दर्येण जितोऽस्मीति लज्जया स्वयमेव सन्न्यस्तदेहः त्यक्तदेहः इति मन्ये इत्युत्प्रेक्षा न स्वयम् न्यस्ताकृतेः कोपः सम्भवतीति भावः
अनेन सम्बन्धमुपेत्यदिष्ट्या मनोरथप्रार्थितमीश्वरेण मूर्धानमालिक्षितिधारणोच्चम् उच्चैस्तरम् वक्ष्यति शैलराजः
अनेनेति हे आलि सखि आलिः सखी वयस्या च इत्यमरः शैलराजः हिमवान् दिष्ट्या इति आनन्दे अव्ययम् मनोरथैः प्रार्थितम् अवरुद्धम् अभिलाषविषयीकृतमित्यर्थः प्रार्थना याच्नावरोधयोः इत्यभिधानात् अनेन ईश्वरेण सम्बन्धम् उपेत्य अवाप्य क्षितिधारणेन उच्चम् उन्नतम् मूर्धानम् उच्चैस्तरम् उन्नततरम् उच्चैरित्यव्ययात् तरप्रत्ययः मूर्ध्नो द्रव्यत्वान्नामुप्रत्ययान्तो निपातः किमेत्तिङ्गव्ययघादाम्बद्रव्यप्रकर्षे इत्यादिना अद्रव्यप्रकर्षे तस्य विधानादिति वक्ष्यति धारयिष्यति वहतेः लृट्
इत्यौषधिप्रस्थविलासिनीनाम् शृण्वन् कथा श्रोत्रसुखास्त्रिनेत्रः केयूरचूर्णीकृतलाजमुष्टिम् हिमालयस्यालयमाससाद
इतीति त्रिनेत्रः त्रियम्बकः त्रिनेत्रत्रिनयनशब्दयोः शुभ्नादिषु च इति णत्वाभावः इति इत्थम् ओषधिप्रस्थविलासिनीनाम् सम्बन्धिनीः श्रोत्रसुखाः श्रवणमधुराः कथाः आलापान् शृणुवन् केयूरैः अङ्गदैः चूर्णीकृताः लाजानाम् मुष्टयः यस्मिन् तम् तथोक्तम् तत्र अवकीर्णाः आचारलाजाः अन्तराल एव अङ्गदैः चूर्णपेशम् पिष्यन्त इति पुरन्ध्रिजनसम्बन्धातिशयोक्तिः हिमालयस्य हिमवतः आलयम् भवनम् आससाद
तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद्दीधितिमानिवोक्ष्णः क्रान्तानि पूर्वम् कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश
तत्रेति तत्र हिमवदालये अच्युतेन विष्णुना दत्तहस्तः वितीर्णहस्तावलम्बः सन् शरद्घनात् शरन्मेघात् शरद्विशेषणात् मेघस्य शुभ्रत्वम् गम्यते दीधितिमान् सूर्यः इव उष्णः वृषात् अवतीर्य कमलासनेन पूर्वम् अग्रे क्रान्तानि प्रविष्टानि अद्रिपतेः कक्ष्यान्तराणि गेहप्रकोष्ठान्तराणि विवेश कक्ष्या कच्छे वरत्रायाम् काञ्च्याम् गेहे प्रकोष्ठके इति यादवः
तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च गणाश्च गिर्यालयमभ्यगच्छन् प्रशस्तमारम्भमिवोत्तमार्थाः
तमिति तम् ईश्वरम् अन्वक् अनुपदम् अव्ययमेतत् अन्वगन्वक्षमनुगेनुपदम् क्लीबमव्ययम् इत्यमरः इन्द्रप्रमुखाः देवाश्च सप्तर्षयः पूर्वे येषान्ते सप्तर्षिपूर्वाः न बहुव्रीहौ इति सर्वनामसंज्ञाप्रतिषेधः परमर्षयः सनकादिमहर्षयश्च सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः इति तत्पुरुषः गणाः प्रमथाश्च उत्तमार्थाः महाप्रयोजनाः प्रशस्तम् प्रकृष्टम् अमोघमित्यर्थः आरभ्यत इति आरम्भः उपायः तमिव गिर्यालयम् हिमवन्मन्दिरम् अभ्यगच्छन् प्राविशन्नित्यर्थः
तत्रेश्वरो विष्टरभाग्यथावत् सरत्नमर्घ्यम् मधुमच्चगव्यम् नवे दुकूले च नगोपनीतम् प्रत्यग्रहीत् सर्वममन्त्रवर्जम्
तत्रेति तत्र हिमवदालये ईश्वरः विष्टरभाक् आसनगतः उपविष्ट इत्यर्थः यथावत् यथार्हम् विधिवदित्यर्थः सरत्नं रत्नसहितं अर्घ्यं अर्घार्थं जलं मधु क्षौद्रम् अस्मिन्नस्तीति मधुमत् गवि भवं गव्यं दधि च मधुपर्कमित्यर्थः दधिमधुनी सर्पिर्वा मध्वलाभे इति आश्वलायनगृह्यसूत्रात् नवे दुकूले चेति सर्वं नगोपनीतं हिमवदानीतं अर्घ्यादिकं मन्त्रान् वर्जयित्वा मन्त्रवर्ज्यं ततो नैसमासः अमन्त्रवर्ज्यं मन्त्रान् न वर्जयित्वा इत्यर्थः द्वितीयायाञ्च इति नमुल् प्रत्यय इत्याह न्यासकारः अनुदात्तं पदम् एकवर्ज्यम् इत्यत्र प्रत्यग्रहीत् स्वीकृतवान्
दुकूलवासावधू समीपम् निन्ये विनीतैरवरोधदक्षैः वेलासमीपं स्फुटफेनराजिः न वै रुदन्वानिव चन्द्रपादैः
दुकूलेति अथ दुकूलवासाः दुकूलं वसान इत्यर्थः सः हरः विनीतैः अनुद्धतैः अवरोधेषु ये दक्षाः तैः अवरोधदक्षैः वधूसमीपं निन्ये नीतः कथमिव स्फुटा फेनानां राजिः यस्य सः उदकम् अस्य अस्तीति उदन्वान् समुद्रः उदन्वानुदधौ च इति निपातनात् साधुः नवैः अचिरोदितैः चन्द्रपादैः चन्द्रकिरणैः वेलासमीपम् इव
तया प्रवृद्धानन चन्द्रकान्त्या प्रफुल्लचक्षुः कुमुदः कुमार्या प्रसन्नचेतः सलिलः शिवोऽभूत् संसृज्यमानः शरदेवलोकः
तयेति आननं चन्द्र इवेति उपमितसमासः प्रवृद्धाननचन्द्रस्य कान्तिः यस्याः तया तथोक्तया तया कुमार्या शरदालोक इव संसृज्यमानः सङ्गच्छ्यमानः शिवः चक्षूंषि कुमुदानीव तानि प्रफुल्लानि यस्य सः तथोक्तः चेतः सलिलमिव तत्प्रसन्नं यस्य सः तथोक्तः प्रसन्नचेतः सलिलः अभूत् शरल्लोकयोरपि यथोचितं विशेषणानि योज्यानि
तयोः समापत्तिषु कातराणि किञ्चिद्व्यवस्थापितसंहृतानि ह्रियन्त्रणां तत्क्षणमन्वभूवन् अन्योन्यलोलानि विलोचनानि
तयोरिति तयोः वधूवरयोः समापत्तिषु यदृच्छया सङ्गतिषु कातराणि चकितानि अधीरे कातरः इत्यमरः द्रष्टुम् असमर्थानीति भावः किञ्चित् ईषत् व्यवस्थापितानि स्थिरीकृतानि पश्चात् संहृतानि निवर्तितानि चेति व्यवस्थापितसंहृतानि पूर्वकाल इत्यादिना तत्पुरुषः अन्योन्यस्मिन् लोलानि सतृष्णानि लोलश्चलसतृष्णयोः इत्यमरः विलोचनानि दृष्टयः तत्क्षणं तस्मिन् क्षणे ह्रियन्त्रणां ह्रिया निमित्तेन संकोचम अन्वभूवन्।